इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको निक्षितः शास्त्री। आदौ मुख्यवार्ताः। विपक्षीदलानां सिन्दूराभियानं बिहारे विशिष्ट गहन संशोधनं चेत्यादिषु अन्य प्रकरणेषु चर्चायाः अभ्यर्थनायानन्तरं द्वयोरेव सदनयोः कार्याचरणं स्थगितम्। महाराष्ट्र सर्वकारेण अद्य बॉम्बे उच्चन्यायालयेन 2006 वर्षस्य रेल विस्फोट प्रकरणे सर्वेषां 12 अभियुक्तानां निर्दोषीकरण निर्णयं विरुध्य सर्वोच्च न्यायालये अभ्यर्थना कृता। अमेरिका देशात् अपाचे हेलीकॉप्टर इति वायुयानानां प्रथमः समूहः भारतम् अद्य प्राप्तः। बांग्लादेशे जातायां विमानदुर्घटनायां मृतकानां संख्या समेध्य 31 संजाता। अपि च जॉर्जिया नगरे फाइड महिला विश्व चषक शतरंज प्रतियोगितायाः उपान्त्य चक्रे दिव्या देशमुख कोनेरु हम्पी च अद्य चीन देशस्य प्रतिद्वंद्वी क्रीडिकयोः विरुद्धं क्रीडिष्यतः। अथ वार्ताः विस्तरेण। विपक्षीदलानां विरोध प्रदर्शनस्य कारणेन सोमवासरे लोकसभायाः राज्यसभायाः च सदनयोः प्रवर्तमाने कार्याचरणे समुद्भूतायाः बाधायाः अनन्तरं कार्याचरणं सम्पूर्णदिवसाय स्थगितं जातम्। विपक्षीदलैः सिन्दूराभियानं बिहारे विशिष्ट गहन संशोधनं चेत्यादिषु अन्य प्रकरणेषु चर्चायाः अभ्यर्थना कृता आसीत्। यदा लोकसभायाः द्वितीयस्थगनस्य अनन्तरम् अपराह्णे 2 पुनरुपवेशनं समारभत तदा विपक्षीसदस्यैः पुनः उच्चनिर्घोषः समारब्धः। संसदीय प्रकरणमन्त्रिणा किरेण रिजिजू इत्यनेन विपक्षीदलानाम् आलोचना कुर्वता प्रोक्तं यत् सर्वकारः चर्चायै सज्जः अस्ति, परञ्च विपक्षीदलानि चर्चां विहाय व्यवधानम् अचिन्वन्। एतादृशानां दृश्याणाम् अनन्तरमेव राज्यसभायां कार्याचरणस्य स्थगनं सञ्जातम्। महाराष्ट्र सर्वकारेण अद्य बॉम्बे उच्चन्यायालयेन 2006 वर्षस्य 7/11 रेल विस्फोट प्रकरणे सर्वेषां 12 अभियुक्तानां निर्दोषीकरण निर्णयं विरुध्य सर्वोच्च न्यायालये अभ्यर्थना कृता। उच्चन्यायालयेन परश्वः प्रकरणमिदं सूचीबद्धं करिष्यते, एतदर्थं सहमति कृता अस्ति। 2006 वर्षे जुलाई मासस्य 11 दिनांके घटितेषु विस्फोटेषु मुंबई नगरस्य उपनगरीय रेल जालपुटे 80+ अधिकाः जनाः मृताः, नैके च व्रणिताः सञ्जाताः। बॉम्बे उच्चन्यायालयेन ह्यः एव विशेष न्यायालयस्य दोषित्व निर्णयः परिवर्तितः आसीत्, यतोहि अभियोजन पक्षः आरोपं सिद्धं कर्तुम् असफलः अभवत्। न्यायाधीशैः अवलोकितं यत् प्रयुक्तानां विस्फोटकानां प्रकारस्य विषये अपि किमपि प्रमाणं न संस्थापितम्, प्रस्तुतानि प्रमाणानि दोषारोपणाय पर्याप्तानि न सन्तीति। स्वास्थ्य कारणानि अधिकृत्य ह्यः उपराष्ट्रपति पदात् त्यागपत्र प्रदानानन्तरं श्रीजगदीप धनखड़ाय कुशल स्वास्थ्यस्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना कामना कृतास्ति। सार्वजनिक सन्देश पटल माध्यमेन श्रीमोदिना प्रोक्तं यत् भारतस्य उपराष्ट्रपति पदम् अलंकुर्वता श्रीधनखड़वर्येण विभिन्न क्षेत्रेषु देशसेवायाः अवसराः समवाप्ताः। अद्य अपराह्णे 12 प्रश्नकालाय समाहूतस्य उपवेशनस्य अनन्तरमेव राज्यसभायाः अध्यक्षत्वेन श्रीघनश्याम तिवारी इत्यनेन धनखड़वर्यस्य त्यागपत्रम् अधिकृत्य गृहमन्त्रालयस्य अधिसूचनायाः विषये सदनं संसूचितम्। प्रातः सदनस्य कार्याचरणावधौ उपसभापतिना हरिवंशवर्येण इदमपि प्रोक्तं यत् भारतस्य उपराष्ट्रपतेः कार्यालये रिक्तिसम्बद्धाः संवैधानिकप्रक्रियाः सूचनाप्राप्त्यनन्तरं संसूचयिष्यन्ते। अवधेयं यत् जगदीप धनखड़वर्येण स्वास्थ्यकारणानि अधिकृत्य ह्यः राष्ट्रपतिपदात् उपराष्ट्रपतिपदात् त्यागपत्रं प्रदत्तम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। भारतीय सेनायाः शक्तौ अभिवृद्धि क्षेत्रे अद्य एकः नवीनः अध्यायः युक्तो अभवत्। अमेरिका देशात् अपाचे हेलीकॉप्टर इति वायुयानानां प्रथमः समूहः भारतं प्राप्तः। एतानि अत्याधुनिक हेलीकॉप्टर वायुयानानि प्रायः वायौ वातकोशाः कथ्यन्ते, यतोहि एतेषाम् उन्नत युद्ध क्षमता अभियान्त्रिकी च उच्चस्तरीया वर्तते। उन्नत शस्त्रैः संवेदकैः सर्वविध वातावरणे संचालन क्षमताभिः च सुसज्जितम् इदं यानम्, येन भारतीय सेनायाः विमान युद्ध शक्तिः इतोऽपि वर्धते। भारतीय वायुसेनया अमेरिकीय सर्वकारेण बोइंग इत्यनेन सह च 2015 वर्षे कृतक्रय सहमत्यनुसारं 22 एतानि अपाचे हेलीकॉप्टर यानानि क्रीतानि। बांग्लादेशे जातायां विमान दुर्घटनायां मृतकानां संख्या 31 सहैव व्रणितानां संख्या च समेध्य 65+100 यावत् संजाता अस्ति। घटनायाम् अस्यां मृतकानां 20 संख्याकाः शवाः तेषां परिवार सदस्येभ्यः समर्पिताः। सैयदुर्रहमानः, मोहम्मद यूनसः च अद्य प्रातः नेशनल बर्न एण्ड प्लास्टिक सर्जरी इन्स्टिट्यूट ढाका इत्यत्र वार्ताहरिभ्यः एतां सूचनां प्रायच्छताम्। राष्ट्रपति पदासीना श्रीमती द्रौपदी मुर्मू अद्य उक्तवती यत् राष्ट्राय समाजाय च जीवन समर्पणं जीवितुं सर्वोत्तमः उपायः अस्ति। राष्ट्रपतिना नवदिल्ली नगरस्य राष्ट्रपति भवने उक्त वक्तव्यं 2018-तः 2021 वर्षाणाम् अवधेः कृते 250वें राष्ट्रपति स्काउट्स एण्ड गाइड्स पुरस्कार समारोहे प्राकाशयत्। कार्यक्रमेऽस्मिन् राष्ट्रपतिना भारत स्काउट एण्ड गाइड्स इत्यस्य 16 स्काउट गाइड रोवर्स तथा च रेंजर्स इत्येतेभ्यः तेषाम् अनुशासनाय समाजसेवायै च पुरस्काराः प्रमाणपत्राणि प्रदत्तानि। सभां सम्बोधयति श्रीमती मुर्मू अवदत् यत् भारत स्काउट एण्ड गाइड इत्यादयः संस्थाः यूनां मध्ये नैतिकमूल्यैः सह निस्वार्थ सेवायाः देशभक्तेः च आदर्शान् संस्थापयन्ति। तिरुवनन्तपुरम् विमानस्थानके जून मासस्य 14 दिनांके आपत्कालीन अवरोहणं कृतवत् ब्रिटिश नौसेनायाः F-35 इति युद्ध विमानं पुनः पूर्णतया सम्यक्तया कार्यकरणावस्थायाम् अद्य प्रस्थितवत्। जुलै मासस्य 6 दिनांकतः अस्मिन् स्थले नियुक्तं यूके अभियान्त्रिकदलं विस्तृतम् अनुरक्षणं सुरक्षा परीक्षां च कृतवत्, येन विमानस्य सक्रिय सेवाः पुनः प्रारम्भाः भवेयुः। ऋतुविज्ञान विभागेन तेलंगाना, छत्तीसगढ़, जम्मू कश्मीर, लद्दाख, कोंकण, गोवा, तटीय कर्नाटक विदर्भ क्षेत्रेषु अद्य विभिन्न स्थानेषु भीषणादपि भीषण वृष्टेः संभावना व्यक्तीकृता अस्ति। आगामिषु 2-3 दिवसेषु दिल्ली, हरियाणा, चंडीगढ़, असम, मेघालय, अरुणाचल प्रदेशानां केषुचित् क्षेत्रेषु अपि भीषण वृष्टेः संभावना वर्तते। उत्तराखण्डे विभागेन उत्तरकाशी, देहरादून, टिहरी जनपदानां विभिन्न क्षेत्रेषु भीषण वृष्टेः येलो अलर्ट इति पीत वार्णिकी संचेतना प्रसारिता अस्ति। अधुना क्रीडा वार्ताः। जॉर्जिया नगरे फाइड विश्व चषक महिला शतरंज प्रतियोगितायाः उपांत्य चक्रे दिव्या देशमुख, कोनेरु हम्पी च अद्य चीन देशस्य प्रतिद्वंद्वी क्रीडिकयोः विरुद्धं क्रीडिष्यतः। अन्ते मुख्यवार्ताः पुनरेकवारम्। विपक्षीदलानां सिन्दूराभियानं, बिहारे विशिष्ट गहन संशोधनं चेत्यादिषु अन्य प्रकरणेषु चर्चायाः अभ्यर्थनायाः अनन्तरं द्वयोरेव सदनयोः कार्याचरणं स्थगितम्। महाराष्ट्र सर्वकारेण अद्य बम्बे उच्चन्यायालयेन 2016 7/11 रेलविस्फोट प्रकरणे सर्वेषां 12 अभियुक्तानां निर्दोषीकरण निर्णयं विरुध्य सर्वोच्च न्यायालये अभ्यर्थना कृता। अमेरिका देशात् अपाचे हेलीकॉप्टर वायुयानानां प्रथमः समूहः भारतं प्राप्तम्। जॉर्जिया नगरे फाइड महिला विश्वचषक शतरंज प्रतियोगितायाम् अद्य उपान्त्यचक्रं भविष्यति इति वार्ताः।